गणाना अन्त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पतान शृण्वन्नोतिभिः सेदसाधनम् प्रणो देवे सरस्वती वाजेभिर्वाजिनीवते धीनाम वित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमञ्जव उतोत इषभे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुभाषन्तमया गिरिशम् ताभिचाकशेः यामिषम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्रताम् गुरुवाहिपुंसि पुरुषम् जगत शिवेन वचसा त्वा गिरिशार्चा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत अद्य वोचदधिभक्ता प्रथमो दैव्योऽभिषक अहेवश्च सर्वाञ्जम्भयत् सर्वाश्च यातु धान्यः असौभ्यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशागुम् हेळ एमहे असभ्यो वसर्वतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्न दृशन्नुदहार्यः उदैनम् विश्वाभूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्चधन्वनस्त्वमुभयोरार्तियोर्जा याश्च ते हस्त इषवः पराता भगवो वप उवत यदनुस्त्वगुम् सहस्राक्षशतेषु ते निशेयशल्यान्नामुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीधुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानादताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् मृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशा च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सत्पिञ्जराय त्विषेवते पथीनाम् बदये नमो नमो बभ्लुषाय विव्याधिनेन्नानाम् बदये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पदये नमो नमो भवस्य हेत्ये जगताम् पदये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पदये नमो नमत्सूताय हन्त्याय वनानाम् पदये नमो नमो रोहिताय स्थपदये वृक्षाणाम् पदये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पदये नमो नमो भुवन्तये वारिव कृतायौषधीनाम् पदये नमो नम उच्चैर्घोषायात्क्रन्दयदेवत्रीणाम् पदये नमो नम कृत्स्नवीताय धावते सत्त्वनाम् पदये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पदये नमो नमः ककुभाय निषङ्गिने स्तेनाम् पदये नमो नमो निषङ्गिन इषुधिमधे तस्कराणाम् पदये नमो नमो वञ्चते परिवञ्चते सायूनाम् पदये नमो नमो निचेरवे परिचरायारण्यानाम् पदये नमो नमः श्रिकाविभ्यो जिघाकुम् सद्भ्यो मुष्णताम् पदये नमो नमोऽसि मद्भ्यो नक्तम् चरद्भ्यप्रकृन्तानाम् पदये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पदये नमो नम इषुवद्भ्यो धन्वाविभ्यश्च वो नमो नम आदन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो वृषुजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नव आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगम् हतेभ्यश्च वो नमो नमो घृत्स्रेभ्यो घृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्वारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वणिभ्यश्च वो नमो नमः श्वभ्यश्वभदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रितिकण्ठाय च नमः कपर्दिने च प्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वरे च नमो गिरिशाय च शिपिविष्टाय च नमो मीनुष्टवाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहदे च वर्षेयसे च नमो वृद्धाय च संवृद्ध्वने च नमो अग्रजाय च प्रथमाय च नमः आशवे चाजिराय च नमः शेघ्रजाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शोराय च वभिन्दते च नमो वर्मिणे च वरूथिणे च नमो बिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनञ्जाय च नमो धृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमः तीक्ष्णे च वे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च धरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वर्षाय च वर्षाय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वाप्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च वयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कुल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाभ्याय च नमः शष्प्याय च फेन्याय च नमः स्रिकत्याय च प्रवाह्याय च नमः इरिञ्जाय च प्रपत्याय च नमः केगुंशिलाय च शयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्प्याय च नमः पागुंसव्याय च रथस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय चाभिघ्नते च नमः आक्षिदते च प्रक्षिदते च नमो किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ద్రాపే అంధసస్పతే దరిద్రన్నీలలోహితా ఏషాం పురుషాణామేషాం పశూనాం బాభేర్మా రోమో ఏషాం కించనామవత యాతే రుద్ర శివా తను శివ విశ్వాః భేషజే శివా రుద్రస్య భేషజే దయానో మృడ జీవసే ఇమాగుం రుద్రాయ తపసే కపర్దినే క్షయద్వీరాయ ప్రభరామహే మతిం యథా నశ్యవ సద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాదురం మృడానో రుద్రోదనో మయస్కృతి క్షయద్వీరాయ నమసా విధేమతే జగచ్చం జయోశమనురాజ జే పితా తదశ్యామతవరుద్ర ప్రణీతో మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదే పితరం మోద మాతరం ప్రియామానస్తనువోరుద్రరీరిషః మానస్తోకేతన ఏమాన ఆయుషి మానోగోషు మాను అశ్వేషురీషః వీరాన్మానో రుద్రపామితో వది అవిష్మంతో నమసా విధేమతే ఆరాత్తే గోఘ్నహుత పూరుషగ్నే క్షయద్వీరాయ సుమ్నమస్మేతే అస్తో రక్షాచనో అధిచ దేవ బ్రూహ్యదాచన శర్మయచ్చ ద్విభయాః స్తుహి శ్రుతం గర్థ సదయ్యువాన మృగన్న భీమముపహద్ముగ్రం మృడా చరిత్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు సేనాః పరిణో రుద్రస్య హేతిర్విడక్తు పరి ద్వేషస్య దుర్మతిరగాయో అవస్థిరా భగవద్భ్యస్తనుష్మీడ్వస్తోకాయదనయాయ మృడయా మీడుష్టమ శివ తమ శివోర సుమనా భవ పురమే వృక్ష ఆయుధం నిధాయ కృత్తిం వసాన ఆచర పిడాకం విభ్రదాగహి వికిరిణ విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివపంతు తాః సహస్రాణి సహస్రధా బాహువోస్తవ హేతయః తా సామీషాణో భగవః పరాజేనాముఖాకృతి సహస్రాణి సహస్రశో యే రుద్ర అధిభూమ్యా తేషాగుం సహస్రయోజనే వదన్వాణి తన్వసి అస్మిన్ మహత్యర్ణవేంతరిక్షే భవ అది నీలగ్రీవాశ్రితి కంఠా శర్వ అదః క్షమాచరాః నీలగ్రీవాశ్రితి కంఠాదివకుం రుద్ర ఉపశ్రుతాః యే వృక్షేషు సస్పింజరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశికాసక్కపర్దినః యే అన్యేషు వివిధ్యంతి పాత్రేషు పిబతో జనాన యే పథాం పథిరక్షయ ఐలభృజాయ వ్యుధః యే తీర్థాని ప్రచరంతి శికావంతోని షంగినః యేతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావిత స్థిరే తేషాగుం సహస్రయోజనే వదన్వాణి తన్వసి నమో రుద్రేభ్యో యే పృథివ్యాం యే ఏంతరిక్షే యే దివియేషామన్న వాతో వరుషమిషవస్తేభ్యో దశ ప్రాచీర్దశ దక్షిణా దశ ప్రతిచీర్దశోతిచీర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృడయంతు తేయం ద్విష్వో యశ్చ నో ద్వేష్టితం భోజం భేదధామి త్రంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ వందనాన్ మృత్యోర్ముక్షేయమామృతాత్ यो रुद्र अग्नव्यो अप्सु य ओषधीषु यो रुद्र विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु येते सहस्रवयुधं पाशो मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानमयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्यर्मे पाहि तमुष्टु हि यस्विशुः सुधन् वायो विश्वस्य शयति वेषजस्य यक्ष्वा महेतौ मनसाय रुद्रम् नमोभिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमरुषणः ॐ शान्ति 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 ॐ सञ्च मे मयश्च मे प्रियम् च मे लुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुधिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ
विष्णोनुकम् वीर्याणि प्रवोचय्य पार्थिवानि विभमे रजागुम् श्रियो अस्कवायदुत्तरगुम् सदस्त्रम् विचक्रमाण ते दोरुगायान् विस्तोरराटमसि विष्णो पृष्ठमसि विष्णो स्तप्त्रे सो विष्णो शूरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा तदस्य प्रियमपि पातो अस्याम् नरो यत्र देवयवो मदन्ति ऊरुक्रमस्य सैवम् दुरित्ता विष्णो परे परे मद्वौत्सः परद्विष्णुस्तव देवीर्याय मृगो न भीमकुचरो गिरिष्टाः यस्योरुषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परो मात्रया तनुवा हृदाना न ते महित्वमन्वश्रुवन्ति उभे ते विद्मरजसि पृथिव्या विष्णो देवत्वम् परमस्य वित्से विचक्रमे पृथिवीमेष एताम् क्षेत्राय विष्णुर्मनुषे दशस्यन् ध्रुवासो अस्य कीलयोजना सह ऊरुक्षितिगुम् सुजनिमाचकार तिर्देव पृथिवीमेष एताम् विचक्रमे शतश्च संमहित्वा प्रविष्णुरस्तु तमसस्त्वमीयान् तेषगृह्यस्य स्थविरस्य नाम अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्या सप्तधामवे इदम् विष्णुर्विचक्रमे त्रेदानि दधे पदम् समूढमस्य पागुम् सुरे त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः ततो धर्माणि धारयन् विष्णोर्कर्माणि पश्यत यतो व्रतानि पश्यसे इन्द्रस्य युज्यस्य खा तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः निवेव चक्षुरादतम् तद्विप्रासो विपन्यहो जागृवागुंसः समिन्दते विष्णो यत्परमम् पदम् पर्याप्त्यानन्तरायाय सर्वस्तोमो रात्र उत्तममहर्भवति सर्वस्यात्ये सर्वस्य चित्ते सर्वमेव तेनाप्नोति सर्वम् जयते ॐ शान्ति 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 ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जात पतिरेक आसीत् सदा धार पृथिवीम् द्यामुते माम् कस्मै देवाय हविषा विधेम य आत्मदा बलदा यस्य विश्व उपासते प्रशिशम् यस्य देवाः यस्य छायामृतम् यस्य मृत्युः कस्मै देवाय हविषा विधेम यः प्राणतो निमिषतो महित्वैक यद्राजा जगतो बभूव य ईशे अस्य द्विपदश्चतुष्पद कस्मै देवाय हविषा विधेम यस्येमे हिमवन्तो महित्वा यस्य समुद्रम् रतया सहाहुः यस्येमा प्रदिशो यस्य बाहु कस्मै देवाय हविषा विधेम ये नद्यो रुग्रा पृथिवी च दृढा येन स्वस्थभितयेन नाकः यो अन्तरिक्षे रजसो विमानक कस्मै देवाय हविषा विधेम यम् क्रन्दसि अवसातस्तभानि अव्येक्षेताम् मनसारे जमाने यत्राधिसूर उदितो विभाति कस्मै देवाय हविषा विधेम आपो हयद्बृहते विश्वमायन् गर्भम् दधाना जनयन्ते रग्निम् ततो देवानाम् समावर्तता सुरेक कस्मै देवाय हविषा विधेम यश्चिदापो महिना पर्यपश्यद्यक्षम् दधाना जनयन्ते यज्ञम् यो देवेष्वधिदेव एक आसीत् कस्मै देवाय हविषा विधेम मानो हिंसे जनिताय पृथिव्यायो वादिवम् सत्यधर्मा जजान यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम प्रजापतेन त्वदेतानन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयम् गच्छामपतयोरयीणाम् ॐ शान्ति शान्ति शान्तिः यश्चन्दसाम् वृषभो विश्वरूपः छन्दोऽभ्योऽध्यमृतात् सम्भवोव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्वम् ब्रह्मणः कोशोऽसि वेदया पिहितः श्रुतम् मे गोपाय मेधा देवी जुषमाणा नागाद् विश्वाचे भद्रा सुमनस्यमाना त्वया दुष्टानुदमान दुरुक्तान् बृहद्वदेम विदधे सुवीराः त्वया दुष्टऋषिर्भवति त्वया ब्रह्मा गतश्रीहृत त्वया त्वया जुष्टश्चित्रम् विन्दते वसुचानोजुषस्वद्रविणो न मेदे मेधा महीन्द्रो ददातु मेधाम् देवी सरस्वती मेधाम् मे अश्विना उभावा दत्ताम् पुष्करस्रजा अप्सरा सुचया मेधा गन्धर्वे सुचयन्मनः नैवे मेधा सरस्वती सामा मेधा सुरभिद्युषता गुस्वाहा आमा मेधा सुरभिर्विश्वरूपा हिरण्यवर्ण जगति जगम्या ऊर्जस्वती पयसा पिन्वमान सामा मेधा सुप्रतीका जुषन्ता मयि मेधाम् मयि प्रजाम् मयि अग्निस्तेजो ददातु मयि मेधाम् मयि प्रजाम् मयि इन्द्र इन्द्रियम् ददातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो व्राजो ददातु हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् मयि मेधा मेधा मयि मयि मेधा मयि मयि मेधा मयि मयि मेधा मयि मेधा मयि मयि मेधा मेधा मयि प्रजा प्रजा मयि मेधा मेधा मयि प्रजा मयि प्रजाम् प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि प्रजाम् मयि मयि प्रजाम् प्रजाम् मयि यज्ञिरग्निर्मयि प्रजाम् प्रजाम् मयि यज्ञिः प्रजामिति प्राज्याम् मयि यज्ञिरग्निर्मयि मयि यज्ञस्तेजस्तेजोऽग्निर्मयि मयि यज्ञस्तेजः अग्निस्तेजस्तेजोऽग्निरग्निस्तेजो ददातु तेजोऽग्निरग्निस्तेजो ददातु तेजो ददातु तेजस्तेजो ददातु मयि मयि ददातु तेजस्तेजो ददातु मयि ददातु मयि मयि ददातु मयि मेधाम् मेधाम् मयि ददातु मयि मेधाम् मयि मेधा मेधा मयि मयि मेधा मयि मयि मेधा मयि मयि मेधा मयि मेधा मयि मयि मेधा मेधा मयि प्रजा प्रजा मयि मेधा मेधा मयि प्रजा मयि प्रजा प्रजा मयि मयि प्रजा मयि मयि प्रजा मयि मयि प्रजा मयि प्रजाम् मयि मयि प्रजाम् प्रजाम् मयि इन्द्र इन्द्रो मयि प्रजाम् प्रजाम् मयि इन्द्रः प्रजामिति प्राज्याम् मयि इन्द्र इन्द्रो मयि मयि इन्द्र इन्द्रियमिन्द्रियमिन्द्रो मयि मयि इन्द्र इन्द्रियम् इन्द्र इन्द्रियमिन्द्रियमिन्द्र इन्द्र इन्द्रियम् ददातु इन्द्रियमिन्द्र इन्द्र इन्द्रियम् ददातु इन्द्रियम् ददात्विन्द्रियमिन्द्रियम् ददातु मयि मयि ददात्विन्द्रियमिन्द्रियम् ददातु मयि ददातु मयि मयि ददातु मयि मेधाम् मेधाम् मयि ददातु मयि मेधाम् मयि मेधाम् मेधाम् मयि मयि मेधाम् मयि मयि मेधाम् मयि मयि मेधाम् मयि मेधाम् मयि मयि मेधाम् मेधाम् मयि प्रजाम् प्रजाम् मयि मेधाम् मेधाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि
ప్రజాం మహిమయి ప్రజాం ప్రజాం మహి సూర్య సూర్యోమయి ప్రజాం ప్రజాం మహి సూర్య ప్రజామితి ప్రాజ్యాం మహిసూర్య సూర్యో మహిమహి సూర్యో భ్రాజో భ్రాజ సూర్యో మహిమహి సూర్యో భ్రాజ సూర్యో భ్రాజో భ్రాజ సూర్య సూర్యో భ్రాజో దధాతు దధాతు భ్రాజ సూర్య సూర్యో భ్రాజో దధాతు భ్రాజో దధాతు దధాతు భ్రాజో భ్రాజో దధాతు దధాత్వితి దధాతు ఓం శాంతి శాంతి శాంతిః ఓం జాతవేదసే సునవామసో మమ రాతి యతో నిదహతి వేదః స నః పరిషదతి దుర్గాణి విశ్వ నావేవ సింధుం ద్వరితాత్యగ్నిః మగ్నివర్ణాం తవ సా జ్వలంతీ వైరోచనీం కర్మ ఫలేక్షుస్తా దుర్గాం దేవీగుం శరణమహం ప్రపన్నే సుతరసి తరసే నమః అగ్నే త్వం పారయాణవ్యో అస్మాన్ స్వస్తి విరతి దుర్గాణి విశ్వా పూశ్చ పృథివీ బహుళాన ఉర్మీ భవాతోకయతనయాయశయ్యో విశ్వాని నో దుర్గా జాతవేదస్యన్నోవాదురితాతిపర్షీ అగ్నే అత్రివన్మనసా ఘృణాణో స్మాకం భోజ్య వితాతనూనా ధృతనాజితగుం సహమానముగ్రమగ్నిగుం భువేమ పరమాస్తనస్తా సర్వపరిషదతి దుర్గాణి విశ్వక్షామధ్యేవో అరిదురితాత్యగ్నిః రత్నోషి కమేజ్ఞో అధ్వరేషు సనాచ్చవోధానమ్యశ్చ దత్తే స్వాంచాగ్నేతనువం పిప్రయస్వా స్వభ్యం చ సౌ భగవాయజస్వ గోభిర్జుష్టమయుజో నిశక్తం తవేంద్ర విష్ణోరను సంచరేమ నాకస్య పృష్టమపి సంవతానో వైష్ణవీం లోక ఇహ వాదయంతా కాత్యాయనాయ విద్మహే కన్యకుమారి ధీమహి తన్నో దుర్గి ప్రచోదయాత్ పురుషస్య విన్మ సహస్రాక్షస్య మహాదేవస్య ధీమహి తన్నో రుద్ర ప్రచోదయాత్ తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహి తన్నో రుద్ర ప్రచోదయాత్ తత్పురుషాయ విద్మహి వక్రతుండాయ ధీమహి తన్నో దంతి ప్రచోదయాత్ తత్పురుషాయ విద్మహి చక్రతుండాయ ధీమహి తన్నో నంది ప్రచోదయాత్ తత్పురుషాయ విద్మహి మహాసేనాయ ధీమహి తన్న షణ్ముఖ ప్రచోదయాత్ తత్పురుషాయ విద్మహే సువర్ణపక్షాయ ధీమహి తన్నో గరుడ ప్రచోదయాత్ వీణాత్మనాయ విద్మహే హిరణ్యగర్భాయ ధీమహి తన్నో బ్రహ్మ ప్రచోదయాత్ నారాయణాయ విద్మహే వాసుదేవాయ ధీమహి తన్నో విష్ణు ప్రచోదయాత్ వజ్రనఖాయ విద్మహే తీక్షతద్భుష్టాయ ధీమహి తన్నో నారతి గుమ్మ ప్రచోదయాత్ భాస్కరాయ విద్మహే మహద్విధికరాయ ధీమహి తన్నో ఆదిత్య ప్రచోదయాత్ వైశ్వానరాయ విద్మహే లాలీలాయ ధీమహి తన్నో అగ్ని ప్రచోదయాత్ కాత్యాయనాయ విద్మహే కన్యకుమారి ధీమహి తన్నో దుర్గి ప్రచోదయాత్ ఓం
ईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात्।
ॐ निधनपतये नमः, निधनपतान्तिकाय नमः, ऊर्ध्वाय नमः, ऊर्ध्वलिङ्गाय नमः, हिरण्याय नमः, हिरण्यलिङ्गाय नमः, सुवर्णाय नमः, सुवर्णलिङ्गाय नमः,
दिव्याय नमः, दिव्यलिङ्गाय नमः, भवाय नमः, भवलिङ्गाय नमः, शर्वाय नमः, शर्वलिङ्गाय नमः, शिवाय नमः, शिवलिङ्गाय नमः, ज्वराय नमः, ज्वरलिङ्गाय नमः, आत्माय नमः, आत्मलिङ्गाय नमः, परमाय नमः, परमलिङ्गाय नमः, एतत्सोऽवच्यतो यच्च सर्वलिङ्गस्थापय निपाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो
जाताय वै नमो नमः भवे भवेनाति भवे भवत्वमा भवोद्भवाय नमः वामदेवाय नमो
ज्येष्ठाय नमश्रेष्ठाय नमो रुद्राय नमस्काराय नमस्करविकरणाय नमो पदविकरणाय नमो पदाय नमो फलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः अघोरेभ्योऽथ घोरेभ्यो घोरघोरकरेभ्यः सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे वासुदेवाय धीमहि तन्नो रुद्रप्रचोदयात्। ईशान सर्वविद्यानामीश्वर सर्वभूतानाम् ब्रह्माधिपति ब्रह्मणोऽधिपति ब्रह्मा शिवो मे अस्तु सदा शिवो। नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतय उमापतये पशुपतये नमो नमः। ऋतगुम् सत्यम् परम् ब्रह्मपुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेकम् विरूपाक्षम् विश्वरूपाय वै नमो नमः। सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वै रुद्रस्तन्महो नमो नमः। विश्वम् भूतम् भुवनम् चित्रम् बहुधा जातम् जायमानम् जयत सर्वोऽख्येश रुद्रस्तस्मै रुद्राय नमो अस्तु तद्रुद्राय प्रचेतसे वीदुष्टमायतव्यते ोचे वसन्तमगुम् हृदे सर्वो ह्ये च रुद्रस्तस्मै रुद्राय नमो अस्तु न कर्मणाय प्रजया धनेन त्यागेणैके अमृतत्वमानशो परेण नाकम् नेतम् गुहायाम् विव्राजते तद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्था सञ्जातयोगाध्यतयः शुद्धतत्त्वाः ते ब्रह्म लोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे दुःखम् विभावम् परमेष्वभूतम् यत्पुण्डरीकम् पुरमध्यसघृस्थम् तत्रापि दह्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वर प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परस्य महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ता न्यायेन मार्गेण महेशा गो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ